ज्ञानिन् कर्म न जातु कर्तुमुचितं किञ्चित् तथाप्युच्यते भुङ्क्षे हन्त न जातु मे यदि परं दुर्भुक्त एवासि भोः बन्धः स्यादुपभोगतो यदि न तत् किं कामचारोऽस्ति ते ज्ञानं संवस बन्धमेष्य परथा स्वस्यापराधा ध्रुवम्।